इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्तसेमवालः। आदौ मुख्यवार्ताः। राष्ट्रिय जनतांत्रिक ग्रन्थिबन्धनम् एनडीए केन्द्रे सर्वकारस्थापनाय सज्जम् वर्तते। अपरत्र भाजपादलस्य अध्यक्षः जेपी नड्डा नवदिल्ल्यां स्वकीये आवासे दलस्य वरिष्ठ नेतृभिः सह उपवेशनं कृतवान्। सर्वोच्चन्यायालयेन हिमाचलप्रदेश सर्वकारः जलापूर्ति संकटापन्नाय दिल्लीनगराय सप्तत्रिंशदुत्तरैकशतं क्यूसेक् परिमितम् अतिरिक्त जलं विमुञ्चितुं निर्दिष्टः अस्ति। भारतीय ऋतुविज्ञान विभागेन आगामी षट् दिवसेष् भारतस्य उत्तरपूर्व क्षेत्रे उपहिमालय क्षेत्रे पश्चिम बंगाले सिक्किमे च वृष्टि संभावना प्रकटिता अस्ति। फीफा विश्व चषकस्य प्रागोपान्त्यचक्रे कोलकातायां सायं भारतं कुवैत दलं सम्मुखीकरिष्यति। अपि च सर्वजोत सिंहेन जर्मनी देशस्य म्यूनिखे आईएसएसएफ विश्व चषके पुरूषवर्गे 10 मीटर परिमितस्य लक्ष्य भेदन स्पर्धायां स्वर्णपदकं विजितम्। अथ वार्ताः विस्तरेण। राष्ट्रिय जनतांत्रिक ग्रन्थिबन्धनम् एनडीए केन्द्रे सर्वकारस्थापनाय सज्जम् वर्तते। अपरत्र भाजपादलस्य अध्यक्षः जेपी नड्डा नवदिल्ल्यां स्वकीये आवासे दलस्य वरिष्ठ नेतृभिः सह उपवेशनं कृतवान्। उपवेशने केन्द्रीय मन्त्री दलस्य नेता च अमितशाहः, राजनाथसिंहः, पीयूषगोयलः, प्रह्लादजोशी, मनसुखमंडाविया, अश्विनी वैष्णवः, भाजपादलस्य राष्ट्रिय महासचिवः तरुणचुगः, अन्ये वरिष्ठ नेतारः च उपस्थिताः आसन्। जदयू प्रमुखः बिहारस्य मुख्यमंत्री च नीतीशकुमारः अपि राष्ट्रिय राजधान्यां स्वकीये आवासे दलस्य नेतृभिः सह उपवेशनम् अकरोत्। एतानि उपवेशनानि एनडीए दलस्य नेतृभिः सर्वसम्मत्या नरेन्द्रमोदिनः स्वकीय नेतारूपेण चयनानन्तरम् अग्रिमदिने संजातानि। एनडीए संसदीय दलस्य उपवेशनं श्वः नवदिल्ल्यां भविष्यति। अस्मिन् उपवेशने बीजेपी, टीडीपी, जेडीयू, एलजेपी, आर, शिवसेना, शिन्देदलम्, जेडीएस, एनडीए इत्यस्य अन्य घटकदलानि च नवनिर्वाचित सांसदैः सह सम्मिलितं भवितुं शक्नुवन्ति। यः एनडीए दलस्य उपवेशनावधौ एकः प्रस्तावः अपि पारितः, यस्मिन् उल्लेखः कृतः अस्ति यत् श्रीमोदिनः नेतृत्वे भारतेन प्रत्येक क्षेत्रे सर्वांगीण विकासः अवलोकितः अस्ति। प्रस्तावे इदमपि कथितं यत् देशस्य नागरिकैः षट् दशकानाम् अनन्तरं निरन्तरं तृतीयवारं पूर्ण बहुमतेन सह एकं सुदृढ नेतृत्वं विचितम् अस्ति। नरेन्द्रमोदिनः भारतस्य प्रधानमन्त्रिरूपेण तृतीयवारं शपथवचनग्रहण समारोहात् पूर्वं सूचना प्रसारण सचिवः संजय जाजू, प्रसारभारत्याः मुख्यकार्याधिकारी गौरव द्विवेदी, अखिल भारतीय रेडियो इत्यस्य उपमहानिदेशिका मौसमी चक्रवर्ती, दूरदर्शनस्य महानिदेशकः कांचन प्रसादः, अन्ये वरिष्ठाधिकारिणः च नवदिल्ल्याः राष्ट्रपतिभवने प्रसारण प्रबन्धस्य समीक्षां निरीक्षणं च कृतवन्तः। अवधेयं यत् ह्यः एनडीए इत्यस्य सदस्यैः सर्वसम्मत्याः प्रधानमन्त्री प्रदाय दलस्य नेतृत्वाय च नरेन्द्रमोदिनः नामांकनस्य समर्थनं कृतमस्ति। सर्वोच्चन्यायालयेन हिमाचलप्रदेश सर्वकारः जलापूर्ति संकटापन्नाय दिल्लीनगराय सप्तत्रिंशदुत्तरैकशतं क्यूसेक् परिमितम् अतिरिक्त जलं विमुञ्चितुं निर्दिष्टः अस्ति। हिमाचलप्रदेश सर्वकारः न्यायमूर्तिः पीके मिश्रा, न्यायमूर्तिः केवी विश्वनाथन इत्यनयोः अवकाशपीठम् अकथयत् यत् न्यायालयस्य निर्देशे सर्वकारस्य कापि आपत्तिः न अस्ति, सहैव सर्वकारः अतिरिक्तजलं विमोचितुं सज्जः अस्ति। अवधेयं यत् शीर्षन्यायालयेन हरियाणा सर्वकारः हिमाचलप्रदेशेन विमोचितम् अतिरिक्तजलप्रवाहं सुचारुतया संचालितुं निर्देशितः आसीत्, येन राष्ट्रिय राजधान्यां जलापूर्तिः सुलभं भवेत्। अस्मिन् प्रकरणे अग्रिमनिर्णयः जूनमासस्य 10 दिनांके भविष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonfm.in air.com इत्यत्र अथ news@air.gov.in इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। गाजा क्षेत्रे इज़राइल कृतेषु विमान आक्रमणेषु 30 फिलिस्तीन नागरिकाः मारिताः, अनेके जनाः घातिताः च, येषु अधिकांशः बालकाः महिलाः च आसन्। मध्य गाजा पट्टिकायां विस्थापितानां नुसेरात शिविरे एकं विद्यालयं लक्ष्यीकृत्य विमान प्रहारः कृतः आसीत्। इज़राइलस्य युद्धक विमानेन न्यूनातिन्यूनं 33 कक्षासु बहुभि क्षेपणास्त्रै प्रहारः कृतः इति स्थानीय सूचनाभि ज्ञातम्। इदानीम् इज़राइल सैन्यबलेन स्वप्रतिक्रियायां प्रोक्तं यत् नुसिरात क्षेत्रे UNRWA विद्यालयस्य अन्तस्थे हमास परिसरे जाते प्रहारे अनेके आतंकिनः मारिताः जाताः। गाजादेशे हमास संगठनस्य तस्य मित्र राष्ट्राणां च उपरि आरोपः प्रख्यापितः वर्तते यत् ते विद्यालयानां, चिकित्सालयाः, अन्येषां नागरिकमूल संरचनानां च उपयोगं कुर्वन्ति। भारत दक्षिण कोरिया जापान अमेरिका यूरोपीय संघ च अद्य सम्मिल्य बायोफार्मास्यूटिकल इत्यस्मिन् क्षेत्रे अनवरत आपूर्ति श्रृंखला संचालनम् अधिकृत्य संयुक्त प्रयासान् विधातुम् एकं ग्रन्थिबन्धनं समारब्धवन्तः। इयं घोषणा सैन डिएगो कैलिफोर्नियायाम् आयोजिते विश्वस्य बृहत्तम बायो फार्मास्यूटिकल प्रदर्शन्याः बायो इंटरनेशनल कन्वेंशन इति कार्यक्रमस्य उद्घाटनोपवेशने कृता अस्ति। उपवेशने भागं भजितानां देशानां प्राशासनिक अधिकारिणः, जैवौषधि उद्योगस्य प्रतिनिधयः च सहभागं कृतवन्तः। प्रतिभागिभिः विश्वसनीयाया सुदृढाया च आपूर्तिः श्रृंखलाया महत्वं सबलं प्रतिपादितम्। जदयू दलेन अद्य प्रोक्तं यत् नूतने एनडीए सर्वकारे मन्त्रिमण्डल पदस्य विषये किमपि अध्यर्थना न कृता अस्ति। अखिल भारतीय रेडियो संचार माध्यमेन भाषमाणः दलस्य प्रवक्ता केसी त्यागी अवदत् यत् भाजपा अध्यक्षः जेपी नड्डा इत्यस्मै केन्द्रीय मन्त्री राजनाथ सिंहाय च मन्त्रिमण्डल निर्माण सम्बद्ध विषये एनडीए ग्रन्थिबन्धनस्य नेतृभिः सह संवादस्य दायित्वं प्रदत्तम् आसीत्। अस्मिन् विषये च सभा क्रियन्ते। सः अवदत् यत् जदयूदलं बिहारस्य कृते विशिष्ट स्थानम् इच्छति यतः एतत् राज्यात् दरिद्रता, प्रवास चेत्यादि विषयान् सम्बोधयितुं साहाय्यं करिष्यति। भारतीय ऋतुविज्ञान विभागेन भविष्यवाणी कृता अस्ति यत् आगामि 6 दिवसेषु भारतस्य उत्तर पूर्वे क्षेत्रे, उप हिमालय क्षेत्रे, पश्चिम बंगाले, सिक्किमे च व्यापक रूपेण न्यूनतः मध्यम वृष्टेः संभावना अस्ति। उत्तर पश्चिम भारते अपि श्वः यावत् केषुचित् स्थलेषु वृष्टेः, अल्पवृष्टेः च संभावना अस्ति। भारतीय ऋतुविज्ञान विभागेन प्रोक्तं यत् आगामि 2/3 दिवसेषु जम्मू कश्मीर, लद्दाख, गिलगिट, मुजफ्फराबाद, हिमाचल प्रदेश, उत्तराखण्ड राज्येषु अपि एतादृशी एव स्थिति भवितुं शक्नोति। भारतीय ऋतुविज्ञान विभागेन प्रोक्तं यत् आगामि 2/3 दिवसेषु मध्यप्रदेश, उत्तरप्रदेश, झारखण्ड, पंजाब, हरियाणा, राजस्थान, ओडिशादि राज्येषु उष्णलहरी यथावत् प्रचलिष्यति। अनुभव सम्पन्नः फुटबॉल क्रीडकः सुनील क्षेत्री अद्य सायं कोलकातायां कुवैतं विरुध्य महत्वपूर्णस्य फीफा विश्व चषकस्य प्रागुपान्त्यचक्रे अन्तिमवारं भारतीय दलस्य नेतृत्वं करिष्यति। क्रीडास्पर्धा सायं 7 समारप्स्यते। सुनील क्षेत्री इत्यस्य सेवानिवृत्तिः तस्य उल्लेखनीयानां 19 वर्षाणां अन्तर्राष्ट्रिय क्रीडायाः अवसान समयः अस्ति। अवधेयं यत् भारतं वर्तमान समये 4 क्रीडास्पर्धासु 4 अंकैः सह समूह अ इत्यस्मिन् द्वितीय स्थाने वर्तते। सहैव विश्वचषके विजयस्वप्नं साकारं कर्तुं तेन एकः विजयः अपेक्षितः अस्ति। लक्ष्यभेदन स्पर्धायां सरबजोत सिंहेन पुरुषवर्गे 10 मीटर परिमितस्य लक्ष्यस्य भेदनं कृत्वा स्वर्णपदकं च विजित्य जर्मनी देशस्य म्यूनिख ISSF विश्वचषके भारतस्य पदार्पणं कारितम् अस्ति। इति वार्ताः।